ஸ்ரீகுருப்யோ நமஹ. ஹரிஹ ஓம். கணானாம் த்வா கணபதிகும் ஹவாமஹே கவிம் கவீனாமுபமஶ்ரவஸ்தமம் ஜேஷ்டராஜம் ப்ரஹ்மணாம் ப்ரஹ்மணஸ்பத ஆனஶ்ருண்வன் நோதிபிஃ சேதசாதனம் ப்ரணோ தேவே சரஸ்வதி வாஜேபிர் வாஜினீவதே ஹே ராம வித்ரயவது கணேஷாய நமஹ சரஸ்வத்யே நமஹ ஸ்ரீகுருப்யோ நமஹ ஹரிஹ ஓம். ஓம் நமோ பகவதே ருத்ராய ஓம் நமஸ்தே ருத்ரமன்யவ உதோ தைஷவே நமஹ நமஸ்தே அஸ்து தன்வனே பாஹுப்யாமுததே நமஹ யாதைஷு ஶிவதமா ஶிவம் வபூவதே த்வனுஹ ஶிவாஶரவ்யாய தவதயானு ருத்ரம்ருணயா யாதே ருத்ர ஶிவா தனுர கோரா பாபகாஷினி தயானஸ்தனு வாஷந்தமயா கிரிஷந்தாபிஜாகஷீ யாமிஷும் கிரிஷம் தஹத்தே விவர்ஷஸ்தவே ஶிவாங்கிரித்ரதாம் கர்மாயிகும்சே புருஷம் ஜகத ஶிவேன வசசா த்வாகிரிசாச்சாவதாமசி யதானஃ சர்வமிஜ்ஜகத யக்ஷ்மகு சுமனா அசத அத்ய ஓசததி வக்தா பிரதமோ தைவ்யோ விஷக அஹேகஸ்ய சர்வான் ஜம்பயன் சர்வாஸ்ய யாது தான்யஹ அஸௌ யஸ்தாம்ரோ அருண உத பப்ருஸ்வ மங்களஹ யே சேவாகும் ருத்ரா அபிதோ திக்ஷு ஸ்ருதா சஹஸ்ரஶோ வைஷாகும் ஹேட ஈமஹே அஸவ்யோ வசத்பதி நீலங்கிரே வோ விலோஹிதஹ உதைரம் கோபா அதிருஷன் அதிருஷன்னதஹார்யஹ உதைரம் விஷ்வா பூதானி சதிஷ்டோ மிருடயாதினஹ நமோ அஸ்து நீலக்ரேவாய சஹஸ்ராக்ஷாய மீடுஷே அதோ யே அஸ்ய சத்வாரோஹம் தேப்யோ கரண் நமஹ ப்ரமுஞ்ச தன்வனஸ்த்வமுபயோராத்மியோஜ்யாம் யாஸ்ய தே ஹஸ்த இஷவ பராதா பகவோ வப அவதத்ய தனுஸ்த்வகும் சஹஸ்ராக்ஷ தேஷு தே நிஷேண ஶல்யானாம் முகா ஶிவோ ந சுமனா பவ விஜ்யம் தனுக் கபர்தினோ விஷல்யோ பாணவாகும் உதாம் அநேஷன்னஸ்யேஷவ ஆபுரஸ்ய நிஷங்கதிஹ யாதே திர்மீடுஷ்டவாஸ்தே பபூவதே தனுஹ தயாஸ்மான் விஷ்வதஸ்த்வமயக்ஷ்மயா பரிப்புஜ நமஸ்தே அஸ்த்வாயுதாய நாததாய கிருஷ்ணவே உபாப்யாமுததே நமோ பாஹுப்யாம் தவ ஜன்மனே பரிதே ஜன்மனோ ஹேதிரஸ்மான் ப்ரணக்து விஷ்வத அதோ யிஷுதிஸ்தவாரே அஸ்மன்னிதேஹிதம் நமஸ்தே அஸ்து பகவன் விஸ்வேஸ்வராய மகாதேவாய த்ரயம்பகாய த்ரிபுராந்தகாய த்ரிகாக்னிகாலாய காலாக்னிருத்ராய நீலகண்டாய மிருத்ய ಚಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾ ಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇತಿ ಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಅಶೂನಾಂ ಪದಯೇ ನಮೋ ನಮಃ. ಸಸ್ತಿಂಜರಾಯ ತ್ವಿಷೀಮತೆ ಪಥೀನಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ಬಭ್ಲುಷಾಯ ವಿದ್ಯಾಧಿನೇನಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯ ತಥಾ ವಿನೇಕ್ಷೇತ್ರಾಣಾಂ ಪದಯೇ ನಮೋ ನಮಃ. ಸೋತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ಮಂತ್ರಿನೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯ ಔಷಧೀನಾಂ ಪದಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೆ ಪತ್ನೀನಾಂ ಪದಯೇ ನಮೋ ನಮ. ಕೃಷ್ಣಭೀತಾಯ ಧಾವತೆ ಸತ್ತನಾಂ ಪದಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪದಯೇ ನಮೋ ನಮಃ. ಕಕುಭಾಯ ನಿಷಂಗಿನೇ ಸೇನಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿನ ಇಷುಧಿಮತೆ ತಸ್ಕರಾಣಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ವಂಚತೆ ಪರಿವಂಚತೆ ಸಾಯೂನಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪದಯೇ ನಮೋ ನಮಃ. ಸೃಕಾವ್ಯಭ್ಯೋ ಜಿಗಾಗುಂ ಸದ್ಭ್ಯೋ ಮುಷ್ಯತಾಂ ಪದಯೇ ನಮೋ ನಮೋ. ಶಿವದ್ಭ್ಯೋ ನಕ್ತಂಚರದ್ಯ ಪ್ರಕೃತಾನಾಂ ಪದಯೇ ನಮೋ ನಮ. ಉಷ್ಣೇಶಿನೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪದಯೇ ನಮೋ ನಮ. ಇಷುಮದ್ಭ್ಯೋ ತನ್ಭಾವಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಆತನ್ಭಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯಶ್ಚ ಯಾನೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಃ ಸಭಾಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಉಗಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹತೆಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ಗೃಚ್ಛೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪದೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ. ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಃ. ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಃ. ಚಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಃ. ಕುಲಾರೇಭ್ಯಃ ಕರ್ವಾರೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಃ. पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नम श्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कभर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविष्टाय च नमो मीरुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नम आशवे चाचिराय च नम शीघ्रियाय च शीघ्राय च नम ऊर्म्याय च वस्वन्याय च नम श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्धेयाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्भर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः शवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावविन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो धृष्णवे च प्रमिषाय च नमो द्रुताय च प्रहिताय च नमो निषङ्गिणे चेष्टुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः कार्याय च नेप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुमाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे भदाय च दूरे भदाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च वायोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च वेण्याय च नमः सिकत्याय च प्रभाग्याय च नमः हिरण्याय च प्रपत्याय च नमः किंशिलाय च क्षयणाय च नमः च वन्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः कात्याय च गह्वरेशाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमानाय चाभिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्मत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रावे अन्धसस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्च नाममत या ते रुद्र शिवा तनो शिवा विश्वावेशजे शिवा रुद्रस्य वेशजे तया नो मृणजीवसे इवागुम् रुद्राय तवसे कवन्निने क्षयद्वेराय प्रवरामहे मतिम् यथा नश्यवसद्विपदे चतुष्पदे विश्वम् पुष्टम् रामे अस्मिन्ननातुरम् ऋणानो रुद्रोतनो वयस्कृति क्षयद्वेराय नमसा विधेमते यच्चञ्चयोश्च मनुराय जे पिता तदश्याभतव रुद्र प्रणीतौ मानो महान्त भूतमानो अर्भकम् मान उक्षन्त भूतमान उक्षितम् मानो वदे पितरम् मोत भातरम् प्रियामानस्तनुवो रुद्ररेषः मानस्तोकेतन एवान आयुषि मानो गोषु मानो अश्वेश्वरेषः वेरान्मानो रुद्रभामितो वदे हविष्मन्तो नमसा विधेमते आराते गोघ्न पुरुषन्ने क्षयद्वेराय त्वम् नमस्वेते अस्तु रक्षा च नो अधि स देव ब्रू यथा च नः शर्म यच्च द्विवर्हा स्तुहि श्रुतम् गत्त सदञ्जवानम् मृगन्न भीममुपहत्वमुग्रम् प्रणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परयो रुद्रस्य एतर्वृणक्तु परिक्लेशस्य दुर्मतिरघायो अवस्थिरा भगवद्भ्यस्तनुष्वमेतस्त्वकायतनयाय मृणय मेरुष्टमशिवतम शिवो न सुमना भव परमे वृक्ष आयुधम् निदाय कृत्तिम् वसान आचर पिनाकम् विभ्रदागहे विकिरिध विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रगा वा भुवोस्तव हेतयः तासामीशानो भगवः पराचेनामुखाकृधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषाम् सहस्रयोजने वन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दर्क्षे भवा अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ే వృక్షు సస్మిగ్రేవాహిత ఏ భూతనామతిపతయో విశికాసక్కవర్దిన ఏ అన్యేషు వివిద్యంతి పాత్రేషు వివతో జనాన ఏ పతాం పతిరక్షయ ఐలవృదాయభ్యునః ఏ తీర్థాని ప్రచరంతి శకాబంధో నిషంగిణః ఏతావంతశ్చ భూయాగుంశశ్చ దిశో రుద్రావితస్థిరే ఏషాగుం సహస్రయోజనే వసన్వాని తన్మసే నమో రుద్రేభ్యో ఏ పృథివ్యాం ఏ అరిక్షే దివ్యే శామన్నం వాతో వర్షవిషవస్తేభ్యో దశ ప్రాచేద్దశ దక్షిణా దశ ప్రచేచేద్దశోదేచేద్దశోద్ధ్వాస్తేభ్యో నమస్తే నో మృణయంతు తే విష్మో యశ్చ నో ద్వేష్టితం భోజం మే దదామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం పర్వారుకమివ వందనాన్ మృత్యోర్ముక్షే హవామృతాత్ యో రుద్రో అగ్నౌ యో అప్సుయ ఓషధేషు యో రుద్రో విశ్వామువనావివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశ మృత్యో మధ్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథయసి అత్రో మా విశాంతకః ేనాప్యాయస్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమస్తయ శిశుసృజన్ వాయు విశ్వస్య క్షయతి వేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో నిర్దేవమసురం ధ్రువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తర అయం మే విశ్వమేషయోయగు శివాభివర్షన శాంతి 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 అగ్నాభిష్ణో సజోషసేమా వర్ధంతు వాంగిరః ద్యుమ్నైర్వాచేభిరాగతం వాచశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ ఆధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ ఓజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జయా చ మ ఆత్మా చ మే తనుశ్చ మే శర్మ చ మే వర్మ చ మే అంగాని చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే జ్యేష్ఠం చ ఆధిపత్యం చ మే మన్యుశ్చ మే భావశ్చ మే మశ్చ మేంబశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే అశ్వా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే త్విషశ్చ మే క్రీడా చ మే మోదశ్చ मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपतं च मरुद्धं च मरुद्धिश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे क्षणं च मे वयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवित् च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे शेरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सब्धिश्च मे सपेतश्च मे कृशिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे भ्रेहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे भुग्नाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नैवाराश्च मे अश्मा च मे मृत्तिका च मे किरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टवच्चं च मे कृष्टवच्चं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च महेमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे नेवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मेधश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रा वरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रहणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इन्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरव च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे भूतवृक्ष म आधवणेयश्च म आग्नेयेन्द्रं च मे हविर्धारं च मे ग्रहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे अभृतश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तां वृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतं च मे होरात्रयो नष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्ट्यौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहं च मे नड्वान् च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविंशतिश्च मे त्रयोविंशतिश्च मे पञ्चविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च म एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विंशतिश्च मे चतुर्विंशतिश्च मे अष्टाविंशतिश्च मे द्वात्रिंशच्च मे त्रिगुंशच्चमे चत्वारिगुंशच्चमे चतुश्चत्वारिगुंशच्चमे स्थाचत्वारिगुंशच्चमे वाजश्च प्रसवश्च भिजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्लेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च या देवोर्मनुर्यज्ञनि बृहस्पतिरुक्ता मदा निशगुं शिषद्विश्वे देवासोक्तवाच प्रतिविमातर्मा माहिगुंसे मधुजनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्ये व्यस्तम्मा देवा अवन्तु शोभाये पितरो नु मदन्तु ॐ शान्ति 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 ॐ अत्रिणात्वा कृमे हन्मे कण्वेन शमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुं राजा अप्येषागुस्तपतिर्हतः अथो मातातो पिता अथो स्थूराः अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तथा हि तत् कण्प्रन्मसि ॐ शान्ति 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 ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह तामावह जातवेदो लक्ष्मीमनवगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीमा देवी दुषताम् काम् सोऽस्मिताम् हिरण्य प्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवदुष्टामुदाराम् ताम् पद्मिनीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् नृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे कृत्तिपासामलाम् ज्येष्ठामलक्ष्मी नाशयाम्यहम् अवोतिमसमृद्धिम् च सर्वानिर्णुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करिष्यणि ईश्वरीकुम् सर्वभूतानाम् तामिहोपक्वये श्रियम् मनसः काममाकोतिम् वाच सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्रीतव समे गृहे मे च देवीम् मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्महीम् लक्ष्मीम् जातवेदो मावः आर्द्राम् यःकरणीम् यस्मिन् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्महीम् लक्ष्मीम् जातवेदो मावः तामावह जातवेदो लक्ष्मीमनवगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान्विन्देयम् पुरुषानहम् यस्सुचित्प्रयतो भूत्वा जूयादाद्यमन्वहम् श्रेयः पञ्चदशच्चम् च श्रीकामः सततम् जपेत् पद्मानने पद्मऊरु पद्माक्षे पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मे दुशताम् देवि सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् अस्तस्वादिगवेरतम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायु धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षन्तु ते विभावणि दिवो अम्रस्य विद्युतः रोहन्तु सर्वबीजान्नव ब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विश्वमनोनुकूले तत्पादपद्मम् मयि सन्निधस्त्वा या सा पद्मासनस्था विपुलकणिकणि पद्मवत्रायताक्षे गम्भीरावर्तना विस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यै गजेन्द्रैः मणिगणकचितैः स्थापिता हे मकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मी क्षीरसमुद्रराजतनया श्रीरङ्गदामेश्वरीम् दासी भूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमवेति मुद्राम् करे वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिमाम् वहेहमम्बाम् जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् स्वस्ति प्रजाभ्य परिपालयन्ताम् न्यायेन मार्गेण महिमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः।